என்ன சொல்லாம தெரியும் சொல்லிச்சு
சரணும்
சொல்லாம
தெரியனபர் ஆங்கனச் ஆர்டர் கர குதாரி சுஸ்தேங்க கனினோ தரான் சன்சனே நாக குஷ் மாசா இருக்கா மேலவா தேல ஆபரேட்டர் லியோனிச்சல
ஆமா கொனே ஓனே என்ன
அண்ணா கூட அதலா கேளுங்க இல்ல கர ஸ்டால் ஃபில் ஷாலோ விளங்கினத
அம்மா தாத்தா டவுலுள்ள நம்பர்
அதோ நீங்க டவுல் குச்
ஓகே ஷி கொத்ரோ சன்ஸ்கேன்
ቁጥር የድራይቨር ብሎ ነግሮኝ ነበር ስዊች ኦፍ ነው እሱ ጋር ልንሰማ
እሺ የእርሱ ስልክ ቁጥር ይንገርኝ አንዴ
18 18 00
እሺ
6773
መሰረት በሚለው ምን ምን ነበረ እንትኑ
ስንት ቁጥር ነው
በእርሶ ነበረ እንትኑ እርሶ ነበሩ አድሚ
ቆይተረኩታ
26 ኪሎ ነው አሁን ሲደውሉ ስልኩ አይሰራም
ተጠኛ እና ደግሞ ቦታ እኔ ወሎ ሰፈር ቴሌን ያልኩት እሱ ጋር የሚለው ደግሞ ቸርችል ነው አለኝ
ይመጣሉታል በቃ እንደዛ ከሆነ ቢሮ ነው እንዴ
አሁን ገባሎ ከሰዓት ግን ሰው አለ ተመጣም ችግር የለውም
አይ ይወጣል ዛሬ አሳይንድ ስላለ የድራይቨሩ ባይሰራም ሲደርስ እዛ ይደውላል ወጥቷል ደውላለሁ አሁን የወሎ ሰፈር
እንትን
ወጥቷል ስለተባለ
አይ ቸርችል ጋር ስላለ
ይደርስ ነው አይ አይ ሄድ ማውን ጠይቀን ነበረ
በጣም ጥቅሽ አይ ኮድ ኮድ ስራ ደሞ ኮድ ስለሚጠይቁ ምናልባት
ኮርስ ላልከላከልኝ አይ ችግር የለም ለቸርሎ ጠይቃ ነው ነበረ አሁን ይወጣል ምናምን ብሎናል
ስለዚህ ኮድ አይጠይቀኝም
እርሶ ይሄ እርሶ ጋር ነው የሚደውለው ሄሎ
አቤት አቤትማ
ድራይቨሩ ይደውላል
እሺ
ሄሎ አይሰማም
ይሰማኛል
ከዛ እርሶ ጋር ሲደውል እርሶ እዛ ካልደረሱ ችግር የለውም የቁጥር መስጠት ይችላሉ መቀበል የእርሶ መቀበል
አዎ ችግር የለውም እሱማ ኮድ ስለሚጠይቁ ብዬ ነው አሁን ኮድ
አዎ እርሶ ጋር ሲደውል ነገር ነው
የነበረውን ኪስረው
አዎ እሺ